सर्वेषां नमस्कारः. ओके, सो ऐ जस्ट् वाण्टेड् टु रिवैस् द पोर्शन्स् विच् वी हेव् कवर्ड् लास्ट् वीक्. ऐ एम् शेरिङ्ग् द स्क्रीन्, होप् इट् इस् विसिबल् टु आल्. इफ् यु आर् नाट् नो सीङ्ग् दि the PPT, you can let me know. So we have already learned mama nama. So how to introduce oneself? Mama nama Kamala Rajaha. Bhavataha nama kim? Bhavatyaha nama kim? Yeah. And saha. सः बालकः. सः पुरुषः. एषः बालकः. एषः पुरुषः. कः बालकः? कः पुरुषः? सो वी आर् फेमिलियर् वित् आल् दीस् वर्ड्स्. सः, एषः. सः, एषः. बोत् आर् ही. But the difference is, one is far away, another one is nearby. Saha balakaha, which is from, so he is far from, quite a distance. I can see him in the long distance. I can say, saha balakaha, saha chatraha, saha purushaha. If he is nearby, I can say, eshaha balakaha, eshaha purushaha, eshaha yuvakaha, eshaha chatraha. Question, kaha, kaha balakaha, answer would be either saha balakaha or eshaha balakaha. Someone can try by seeing this picture. Siyutaha, saha siyutaha. Question, saha kaha, saha siyutaha. Vimal Mahodaya, can you try this? Question, saha kaha? Vimal Mahodaya.
Saha kaha, saha balakaha.
I am asking the question, you just answer it. Saha balakaha, uttamam. Next, Narasimha Mahodaya. Saha kaha?
Saha marjarah.
सः मार्जारः. उत्तमम्. एषः कः? प्रणवः.
एषः मन्तः. मन्थनः.
मन्थानः. एषः मन्थानः. एषः कः? एषः मन्थानः. उत्तमम्. एषः कः? प्रसन्ना महोदय.
एषः वैद्यः.
एषः वैद्यः. उत्तमम्. अनन्तरम् एषः कः? सुधीर महोदय.
एषः दीपः.
उत्तमम्. एषः सः कः? समर्थ महोदय. समर्थ महोदय अस्ति वा? सः कः?
चषकः.
चषकः. चषकः. Can you repeat it, Samartha? Chashakaha.
Chashakaha.
Okay. If you are seeing a lengthier one, a hand, it is a saha. A shorter one is eshaha. So that is the idea. So saha chashakaha. I am asking the question. Saha kaha?
Saha.
Chashakaha.
सः चषकः.
उत्तमम् उत्तमम्. So if you are not getting a, if you are not getting a chance, or you, if you are someone is answering, you please mute yourself so that it it would be good, the noise is very less. Yeah,
okay,
thank you. Yeah, good. I can mute all of you, but you know, good. Next, someone ask a question and answer. You can ask question and you can answer yourself. Yeah.
Eshaha padaha.
First question, eshaha kaha is the question. Eshaha padaha is the answer. Uttamam. Can you repeat once again?
Eshaha एषः कः? एषः पदः.
पादः दीर्घं पदः न पादः. प्रसन्ना महोदय.
एषः कः? एषः दर्पणः.
उत्तमम्. एषः कः? एषः दर्पणः. नेक्स्ट् सुधीर महोदय.
सः कः? सः पर्वतः.
सः कः? सः पर्वतः. उत्तमम्. समर्थ महोदय. उत्तमम्. एषः कः? एषः आरक्षकः. विमल महोदय.
सः कः? सः चमसः.
उत्तमम्. प्रणवः.
सः कः? सः देवालयः.
देवालयः.
सः देवालयः.
उत्तमम्. सः देवालयः. नरसिंह महोदय.
सः कः? सः दन्तकूर्चः.
उत्तमं. दन्तकूर्चः. विमल महोदय.
सः कः? सः कूर्मः.
उत्तमं. प्रसन्ना महोदय.
एषः कः? एषः वृक्षः.
उत्तमम्. अस्तु. सो द मैस्कुलिन जेंडर यूजुअली एंड्स विथ द विसर्गः. ह इज अ साउंड ऑफ विसर्ग. सो बालकः. If you can see the balaka shabda, it ends with visargaha. Okay, so all the visarga, the word ends with ha sound. It is pullingaha mostly. Yeah, so balakaha, yuvakaha, purushaha, kurmaha, dantakurchaha, vrikshaha, devalayaha. Everywhere we are seeing the sound is ha. It is ends with ha. So it is pullinga shabda. Okay. So now it is a napumsaka linga shabda.
Can I ask a question from the previous slide?
Sure.
For the second word, akarantaha. Oh, Miss Pullinga Shabda. Okay, got it. Same converted. No problem. Sorry. Thank you.
Yeah, no worries. Okay. So it is normally it is in the Pullinga Shabda end with the Visarga, or the sound you can hear is ah. How Balaka, Purusha, Yuvaka, Vriksha, Devalaya, Yeah, so it ends with a sound. Yeah, the sound is a, so it is anta. Anta means end. A is a sound we are hearing at the end. It means akaraha antaha shabdaha. If it is, it sounds a, it is akaraha. If it sounds e, it is ikaraha. Hu ukaraha. So when we say it sounds om, then it is omkaraha. So we are familiar with this word, omkaraha. Why it is omkaraha? It sounds om. So akaraha. Antaha, end. So the sound at the end, a, so the word ends with a, akarantaha. So if it is akarantaha, then it is pullingaha, masculine. Akarantaha, pullingaha, balakaha. Likewise, if the word ends with im, normally, ends with im. Many examples we have, vimanam, mukam, yeah, chitram, krishna palakam, nakam, all words end with im. It is a napumsaka linga, neutral gender. So for pullinga we are saying saha eshaha. Question, kaha. Saha kaha is a pullinga. If it is a napumsaka linga, we should ask tat, tat and etat. Tat kim, etat kim. Kim is a question. Like kaha is a question for pullinga, kim is a question for napumsaka linga. Tat kim, tat vimanam. Tat kim, tat vimanam. Tat kim, Vimal Mahodaya. Tat kim?
Tat pustakam.
Uttamam. Tat kim?
Tat loka.
Narasimha Mahodaya. Uttam. Narasimha Mahodaya. Tat kim?
Tat lokayanam.
Uttamam. Pranav.
Tat netram.
Netram. Tat netram. Tat kim? Pranav, tat kim?
Tat netram.
Uttamam. Tat netram. Etat vyajanam. Etat vyajanam. Etat kim? Etat vyajanam. Prasanna, Prasanna Mahodaya. Etat kim?
Etat urukam.
Etat urukam. Etat urukam. Etat kim?
Etat urukam. Etat urukam.
Uttamam. Pushpam. Sudhir Mahodaya.
Tat kim? Tat pushpam.
Uttamam. Tat kim? Tat pushpam. Parnam. Samartam, samartha vadati va?
Etat
kim? Etat
patram. Uttam. Etat kim? Etat patram. Yeah, you can mute it well. Sheshadri Mahode asti va?
Asti, asti.
Uttama. Next. Jalam. So when you are seeing a lengthier hand symbol, it is tat, duram. Shorter one is etat. This is duram. Tat, tat jalam. Tat kim? Sheshadri Mahodaya. Tat kim?
I'm not able to see the picture. Actually, I'm using a hand phone.
Okay.
On the picture, I'm not able to hear how to do it. One minute. I'll come.
Okay. Yeah. Okay. Uttam. Tat kim tat jalam. Uttam. Now, Narasimha Mahodaya.
Etat kim? Etat vatayanam.
Uttamam. Vimal Mahodaya.
Tat kim? Tat dvaram.
Etat kim? Etat dvaram.
Oh, sorry. Nearby. Sorry. Etat.
Etat dvaram. Uttamam. Etat kim? Prasanna Mahodaya.
Etat. Nagaram.
Nagaram.
Etat Nagaram. Uttamam. Yashadri Mahodaya, now you can see it.
I can see.
Yeah. Can you try this one?
Etat Seva Palam.
Tat Kim. Tat Seva Palam.
Seva Palam.
Uttamam. Samartha. Draksha Palam.
Etat kim etat draksha palam.
Uttamam. Sudhir Mahodaya.
Tat kim. Tat kim tat naranga palam.
Naranga palam. Tat kim tat naranga palam. Uttamam. Narasimha Mahodaya.
Tat kim tat kadali
phalam. Uttamam. Vimal Mahodaya. Amra phalam.
Tat kim tat amra phalam.
Uttamam. Etat kim etat amra phalam. Bhojanam. Pranav. Bhojanam.
Tat kim tat bhojanam.
Uttamam. Tat kim tat bhojanam. Sudhir Mahodaya. Etat kim
etat payohimam.
Payohimam. Himam means what? That is why it is Himalayaha. Hima Alayaha Himalayaha.
Hima means?
That is nothing but Hima. Hima means ice.
Ice cream.
Himalaya is full of ice, right? That is why it is Himalayaha. Payo Himam means ice cream. The ice which is in the form of cream, right? So it is Payo Himam. Etat kim etat payohimam. Himam. Uttam. Sheshadri Mahodaya.
Etat kim etat penakam.
Etat
penakam is soap.
Penakam is soap. If you are seeing a lengthier the hand symbol, it is far away. So you have to use saha, sa, tat. So it is napumsakalinga. Phenakam shabdam is a napumsakalinga. You have to use
tat kim.
Yeah. Tat phenakam.
Tat phenakam.
Uttamam. Now Prasanna Mahodaya, you try this one. Nanakam.
Etat kim etat nanakam.
Uttamam. Etat nanakam. Sudhir Mahodaya.
Tat kim tat upanetram.
Uttamam.
Bhojan.
Next.
Samartha.
Bhojana Griham.
Tat kim tat bhojana Griham.
Uttamam, uttamam.
Excuse me, I would like to share that Sudhir Shenoy and Samartha are sitting together.
Who's that?
Sudhir and Samartha. Sudhiraha and Samartha are sitting together. Yeah.
Okay.
So after you ask me, we are not unmuting, so that you can ask him immediately after.
Yeah, okay. So after Samartha, Sudhir can say, yeah?
Sudhir and Samartha together. There I think Pranav and his dad are together.
Pranav and who?
And his dad.
I'm not aware. Mm-hmm. Yeah, you can volunteer yourself and you can say the answers if you are sitting together. Yeah, I'm not aware of that.
Yeah.
Thanks for the information. Yeah.
We can proceed now. Thank you.
No worries. Yeah. Thank you so much. Good. So if you are sitting together, once you are Sudhir is done with the answer, other one can start.
Okay.
Like us, and I also.
Yeah.
Okay. Good. Now, next Vimal Mahodaya.
Tat kim, tat charanam.
Uttamam. Narasimha Mahodaya. Peshakam.
Tat kim, tat peshakam.
Uttamam. Udagra yanam. Pranav.
Tat kim, tat Udagrayanam.
Uttamam. Yeah, this one. Griham. I think Pranav and who is that? Pranav and
Tat Kim Tat Graham.
No, Bhavata Namakim Mahodaya. I am not getting. Pranav and Gaurav.
Yeah, okay. Actually, Gaurav is Pranav's brother. He's not in today.
Oh, okay. So, yeah. May I know your name?
I'm Srinivas.
Srinivas. Srinivas Mahodaya and Pranav. Okay. So, once Pranav is done, you can start. Are you attending the class or you are monitoring?
Just monitoring with the kids. Yeah.
Okay, then. Sorry. Okay, Pranavaha. Uttamam. Mishrakam. Uttamam. Prasanna Mahodaya. Mishrakam.
Etat kim. Etat mishrakam.
Uttamam. Next. Sudhir.
Tat kim. Tat yuktakam. Yuktakam.
Yutakam. Yutakam.
Yutakam.
Tat yutakam. Third, tat yutakam. Tat kim, tat yutakam. Danta penakam.
Etat kim, etat danta penakam.
Danta penakam.
Etat kim,
etat
danta penakam.
Danta penakam. Normal penakam is soap, danta penakam.
Toothpaste.
Rail Yanam. Sheshadri Mahodaya. Sheshadri Mahodaya Siva.
Ati. Tat kim tat rail yanam.
Rail yanam. Uttamam. Vanam. Vimal Mahodaya, Vanam.
Etat kim, etat vanam.
Uttamam. Kankatam. Narasimha Mahodaya.
Tat kim, tat kankatam.
Uttamam. Kankanam. Pranav.
Etat kim.
Kankanam.
Kankanam.
उत्तमम्। एतत् किम्? एतत् कङ्कणं। पत्रं प्रसन्ना महोदय।
तत् किं? तत् पत्रम्।
उत्तमं। सङ्गणकं? सङ्गणकं कम्प्यूटर्। सुधीर महोदय।
एतत् किम्? एतत् सङ्गणकम्।
उत्तमं। सङ्गणकम्। ओके, सो अकारान्तपुल्लिङ्गशब्दाः मास्कुलिन् जेण्डर् वर्ड्स् आर् नार्मलि एण्ड्स् वित् दि विसर्ग। पुस्तकं, व्यजनं, सङ्गणकं, पत्रं, पात्रं, चित्रं, all these words are end with im, but we cannot say it is, if it is end with na visarga, it is ha karantah. We cannot say, we are omitting the visarga symbol and we are taking the next one, which is pustakam or chhatrah. We are omitting ha, the sound, and we are taking only the last anta as a, like chhatra. Tra is it plus ra, ir also ir plus a, so the last word, the last alphabet or the last sound is a. In pustakam napumsaka linga we are omitting im. This is all words we are omitting the im, so the remaining part is pustaka. Ka is ik plus a, it is also ends with a, so we are calling this also akarantah but napumsaka linga. So the previously we have seen the masculine gender akaranta pullinga shabdah, the napumsaka linga is also akarantah but it is napumsaka linga because it is normally it sounds im sound at the end. So we are calling it akaranta napumsaka linga shabdah, the neuter gender. Yeah, now strilinga. Sa balika, esha balika, ka balika. सा बालिका, एषा बालिका, क्वश्चन् का बालिका. दिस् इस् शय्या, सो द वर्ड्स् आर् एण्ड् वित् आ, शय्या, सा शय्या, सा का, सा शय्या. नौ विमल् महोदय, पेटिका, विमल् महोदय अन्म्यूट् योर्सेल्फ् अण्ड् यू केन् ट्रै दिस्.
सा का? सा पेटिका. सा का? सा पेटिका.
सा का? सा पेटिका. उत्तमम्, उत्तमम्. पाञ्चालिका, नरसिंह महोदय.
सा का? सा पाञ्चालिका.
उत्तमं. बालिका,
I had one doubt actually.
Yeah, yes.
When we say kim, for example, the word kim is there for questioning. So that would be ikaranta napumsaka linga, correct?
Kim. Akaranta napumsaka linga.
Akaranta or ikaranta napumsaka linga?
Which word are you asking? The word itself, kim it. Kim.
Yeah.
The word kim.
Yes.
Yeah, the word kim, kaha, ka, these are all the, it is changing, as per the previous thing we have learned, saha, kaha, sa, ka, tat, kim. Normally, kim, we can only use it for napumsaka linga as a normal shabda of what? Yeah, we are just you asking what is this, what is that? Yeah, the kim itself. Okay, yeah. So if you are normally using what is that, so that is, you know, where we can see the kim word as avyaya. Avyaya means there is no change at all. Okay, you cannot fit into the napumsakalinga or pullinga or strilinga. If you are normally asking kim, this is a general question, what? So when you know whether that is pullinga, strilinga, napumsakalinga, you should choose the correct question. If you do not know, you can generally ask what is that, right? The kim is nothing. Kim is napumsakalinga normally. Okay. Balika. Pranavaha, Pranav can try. Balika.
Sa Balika.
Question.
Sa question. Ka.
Sa Ka is the question.
Sa Balika.
Sa Balika. Uttamam. Mahila. Prasanna Mahodaya.
सा का सा महिला
उत्तमम् वृद्धा सुधीर महोदय
सा का
सा वृद्धा कंप्लीट द सेंटेंस सा का इज अ क्वेश्चन आंसर इज सा वृद्धा
सा का सा वृद्धा
उत्तमम् कुंचिका की कुंचिका एषा का एषा कुंचिका एषा का एषा कुंचिका लाइक दैट शीला
एषा का एषा का एषा शीला
उत्तमम् एषा का एषा शिला शाटिका शेषाद्री महोदय शाटिका
एषा का एषा शाटिका
उत्तमम् शर्करा हू कैन ट्राई दिस शर्करा विमल महोदय
एषा का ईशा शर्करा
उत्तमम् नेक्स्ट वन नरसिंह महोदय जलनालिका जलनालिका
एषा का एषा जलनालिका
उत्तमम् एषा का एषा जलनालिका युवती सो दिस इज ईकारांत स्त्रीलिंग शब्द So, till Jalanalika, it was Akaranta Strilinga. Now we can see the sound E at the end of the word. Yuvati. So, E Karanta. So, normally, you can see the, all the Indian names, names of female gender or all end with A or E generally. Yeah. So, if it is a, Sanskrit word like Saraswati, Lakshmi, Parvati, Durga, Aishwarya, yeah, all these words, Shanti, Mala, Uma, Rama, Sita, Kausalya, Sumitra, all these words are either end with A or E. So these are all Strilinga words. So you can also you can check. Nadi is the Strilinga Shabda. Nadi is Strilinga Shabda. You can see all the rivers in India will have the name as Ikaranta or Akaranta Strilinga Shabda because Nadi is Strilinga. You understand the point? So the Sanskritam will have these differences. Normally, if you are seeing an Indian name and the influence of Sanskrit, you could see it there. So, Akaranta Strilinga and Ikaranta Strilinga. now it is ikaranda strilinga. Esha ka, esha yuvati, esha ka, esha yuvati. Now pranava, nadi,
sa ka sa nadi.
Uttamam. Sa ka sa nadi. Sammarjani, prasanna mahodaya.
Esha ka esha sammarjani.
Next, Saraswati, Sudhir Mahodaya.
Esha ka esha Saraswati.
Uttamam. Lakshmi.
Sa ka sa Lakshmi.
Lakshmi is different special word. It ends with visarga. But you cannot say Lakshmi ha. Lakshmi hi. Ta ka ta Lakshmi hi. Tamo, tamo. Next. Lata, Sheshadri Mahodaya.
Sa ka sa Lata.
उत्तमं. सा का सा लता. माला, विमल महोदय.
सा का सा माला, सॉरी इट इज नियर बाय, सो इट इज एषा का एषा माला.
उत्तमं. एषा का एषा माला. निधानिका, नरसिंह महोदय.
सा का सा निधानिका.
सा का सा निधानिका. उत्पीटिका, प्रणव प्रणव. उत्पीटिका.
सा का सा उत्पीटिका.
टेबल. उत्पीटिका. मापिका, प्रसन्ना महोदय.
सा का सा मापिका.
उत्तम. घटी, स्त्रीलिंग ईकारांत स्त्रीलिंग शब्द. घटी, सुधीर महोदय. सुधीर.
सा का सा गती. घटी
घटी. घटी. नेक्स्ट, लेखनी.
एषा का एषा लेखनी.
एषा
लेखनी.
एषा लेखनी.
उत्तमम्. एषा का एषा लेखनी. दिस इज अंकनी. शेषाद्री महोदय.
सा का सा अंकनी.
उत्तमम्. सा का सा अंकनी. सूची, विमल महोदय.
एषा का एषा सूची.
उत्तमम्. नेक्स्ट, नरसिंह महोदय. कर्तरी.
सा का सा कर्तरी.
उत्तमम्. प्रणवः. लेपनपट्टिका.
सा का सा लेपनपट्टिका.
लेपनपट्टिका. उत्तमम्. दूरवाणी, प्रसन्ना महोदय. प्रसन्न महोदय अस्ति वा? दूरवाणी.
सॉरी, आई वाज स्पीकिंग ऑन म्यूट. एषा एषा का एषा दूरवाणी.
उत्तमम्. उत्तमम्. जंगम दूरवाणी. जंगम. हैव यू ऑल हर्ड जंगम, द वर्ड जंगम?
नो.
मे बी नो. ओके ओके. इफ यू आर रीडिंग इन श्लोक एंड ऑल, there are two things. One is in the world, one is a jangama and another one is
agama.
Vishnu sasana.
Two kind of jangama. Yeah. Uttamam. So jangama is one thing in the whole world or universe. You can split two types. One is jangama, another one is sthavara. Sthavara means which has a sthira, which has a root, which cannot move. Sthavara, all the plants, we are calling it as sthavaram. In Tamil Bhasha, it is sthavaram. So all the Telugu, Malayalam, and all the languages, the regional languages, all also have the influence of Sanskritam. One is jangama, another one is sthavara. Sthavara means which cannot move. Jangama means it is mobile.
Stationary and mobile.
Yeah, it is mobile. Yes. Sthavara and jangama. So the duravani is, yes. Esha jangama duravani. It is normal, not a normal duravani, it is jangama. Yeah, who is that? Who is next? Sudhir Mahali. Yeah.
This is Esha ka. Esha jagama duravani.
No, okay. In English it is written something else. Okay. Jangama duravani. Jangama. Ing.
Jangama duravani. Jangama. Yeah.
Duravani. Uttam. Esha ka. Esha jangama duravani. Uttam. Next.
Esha ka. Esha pattika.
Uttamam. Esha ka. Esha pattika. Vaidya.
Sorry, sir. Why is there two words for it? Patti and pattika. Is it like feminine, masculine, or both are the same?
No. Both are strilinga, feminine. One is ikar and the strilinga, another one is akar and the strilinga. We can call either way, patti or pattika.
Okay. Thank you.
Vaidya. Sheshadri Mahodaya. Sheshadri Mahodaya, unmute yourself and you can say.
Okay.
Vaidya.
Sa ka sa vaidya.
Uttamam. Sa ka sa vaidya. Next one. Shikshika. Vimal Mahodaya.
Esha shikshika. Esha ka esha shikshika.
Uttam. Esha ka esha shikshika. Dvi chakrika. Narasimha Mahodaya.
Ta dvichakrika.
Uttamam. So we have pullinga, strilinga, napumsakalinga. You can easily remember this quote or this sentence. Sanskrite linga trayam. Trayam means three. Sanskrite linga, genders, or three. Sanskrite linga trayam. Pullinga, strilinga, napumsaka lingaha. Can you repeat? Sanskrite linga trayam. Pullingaha, strilingaha, napumsaka lingaha. Vimal Mahodaya, can you repeat this? Sanskrite linga trayam. Pullingaha, strilingaha, napumsaka lingaha.
Sanskrite lingam trayam. Pullingam. Srilingam napumsaklingam.
Pullingaha, srilingaha, napumsakalingaha. Narasimha Mahodaya.
Sanskrite linga trayam. Pullingaha, srilingaha, napumsakalingaha.
Uttamam. Sheshadri Mahodaya.
Sanskrite trilinga trayam.
Linga trayam.
Linga trayam. Pullinga, strilinga, napumsakalingaha.
Uttama. Pullinga, strilinga, napumsakalingaha.
Can I go to the previous slide?
Which one?
The table. No, the table you're showing, correct? Yeah.
Which one?
Why? It is lingam, correct? So pullingam. So why saying pullingaha?
Yeah, you can call either way. Pullingam, strilinga, napumsakalingam. Or pullingaha, strilingaha, napumsakalingaha. Because when I say pullingaha, strilingaha, napumsakalingaha, I refer the word shabdaha. Okay, in Sanskritam you cannot make mistake because if there is a verb, the proverb should also follow the same vibhakti. It's called a vibhakti. Yeah. If the pullinga word is, we have a noun of pullinga, the adverbs or the pronouns, the noun form we have as pullinga, the pronoun also should have the same linga and the same vibhakti, the same vachanam. We have vachanam, we have lingam, we have kalam. All these should be same. That is the grammar rule in Sanskritam. So if you are referring pullingaha, I am referring the shabdaha. Shabdaha is pullinga shabda, right? Shabdaha, pullingaha, then this is pullingaha. Shabda, if you are calling padam, this is a pullinga padam, then you should say pullingam, because I am referring padam here, not shabda. So in this stage, you are not concentrating much on this, whether it is pullingam or pullingaha. The idea is, it is masculine gender, it should be ending with ha sound. Strilinga is a and e, napumsaka linga should end with the im. So this is the initial idea. Okay, thank you. Uttama. So now I am just sharing the Abhyasa Pustakam so that we can move forward. Just a quick recall. Balakaha. Eshah balakaha saha vruddaha. Eshah ganeshaha saha govindaha. Eshah arakshakaha saha sainikaha. Like that. Eshah sita saha sandhya. एषा बालिका सा वृद्धा एषा नलिनी सा सावित्री एतत् पुस्तकं तद् गृहम् एतत् छत्रं तत् फलम् एतत् पुष्पं तत् कृष्णफलकम् एतत् उपनेत्रं तत् दूरदर्शनम् सो वी हाव् सः एषः सा एषा तत् एतत् पुल्लिङ्ग स्त्रीलिङ्ग नपुंसकलिङ्गः द क्वश्चिन् फार् पुल्लिङ्ग इस् कः For strilinga is a ka, for napumsakalinga is kim. So when you are referring a pullinga shabda, you are asking a question, you know it is pullinga shabda, then you should perfectly use the pullinga question, kaha. You know it is napumsakalinga, you should use the napumsakalinga question word, kim. You know it is a akaranda or ekaranda strilinga shabda, you are clear on that, you should use ka as a question. You are not sure about the linga and you are seeing something, but you do not know the name or you are not sure, you can generally use the question as kim. Kim can also be used as a general question. Bhavataha nama kim. Tat kim. Etat kim. Even though it is a pullinga shabda, you do not know about the gender, you can just ask tat kim. Yeah, if you are asking, I'm holding something in my hand, you are asking, Mahodaya, tad kim? I'm just revealing it, Mahodaya, this is Sammarjani. Oh, the Sammarjani. Then you should, the question is, Ka Sammarjani, or Sa Ka. Yeah, you do not know the gender, you can generally ask the question as kim. If you know the gender, you should ask the proper question. Yeah. So this is the idea. And then we have learnt aam, na, va. Okay. So the normal question, sa balika, sa ka is the question, sa balika. If you are further asking, sa balika, va. Is she a girl? Sa balika, va. Aam, sa balika. सह बालकः वा आम सह बालकः तत् द्वारं वा आम तत् द्वारं सह वैद्यः वा समवन कैन आंसर दिस सह वैद्यः वा प्रसन्न महोदय कैन आंसर नाउ
Yeah, na saha sainikaha.
No, no, no. I'm asking the by seeing this picture.
You're asking that only. Okay, yeah. Okay.
Saha vaidyaha va?
Aam, saha vaidyaha.
Uttamam. Now, the fourth question. Saha sainikaha va is the question. Saha sainikaha va? Prasanna Mahodaya.
Na. Saha vriddaha.
No, no, no. I'm asking by seeing the same picture. Saha sainikaha va?
Na sainikaha na saha vaidyaha.
Okay.
Uttamam. Saha sainikaha na saha vaidyaha.
Vaidyaha. Okay.
Yeah. Uttamam. The next picture I'm asking, Vimal Mahodaya can answer. All the others are please mute. Yeah?
Same picture or
Vimal
other picture?
Mahodaya.
Same picture?
The next one. No, the next one.
Okay.
Sa yuvati va.
Sa yuvati va na 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 sa sa vriddha.
Uttamam. Sa yuvati va na sa vriddha. Tat chitram va. Samartha.
Na tat chitram va. Na tat chitram na tat vahanam.
Uttamam. Na tat chitram na tat vahanam. Uttamam. Tad lokayanam. Aam na va. Aam na va. Now I am asking Vimal Mahodaya, Bhavan vaidyaha va. Vimal Mahodaya, Bhavan vaidyaha va.
Which question is it? Sorry.
No, I am asking a general question. Bhavan vaidyaha va? Are you a doctor? So no, have we seen?
Nah.
Have you seen Bhavan Bhavati?
No.
No.
No. I am so sorry. Okay. Okay then. Yeah, we can omit it. We can see it this week. Very good. Nirmala Balika. Nirmala Balika. Yuvati na. So you are understanding it, right? By seeing this line. Yeah. Balika is a tick, right? Yuvati is wrong. So if I ask a question, Nirmala Balika va, the answer would be Aam Nirmala Balika. If I ask a question, Nirmala Yuvati va? Na, Nirmala Yuvati na sa Balika. Yeah? Next line you can try. You ask a question and you answer it.
Rohini
we can
va. Rohini Vaidya va. Na.
Rohini Vaidya va.
Na. Rohini Vaidya na. Rohini Vidyarthini.
Uttamam. Yeah, sa vidyarthini, esha vidyarthini, rogini vidyarthini. Uttam. Maheshaha. Next one, Maheshaha. Next, Sheshadri Mahodaya can try. Maheshaha.
Maheshaha vaidyava. Na. Maheshaha vaidya na. Sa.
Vidyarthi. Just read this one. Yeah. Sahavidyarthi. The Vidyarthi Shabda is different. By seeing it, it is Ikaranda Strilinga. But the Vidyarthi Shabda is different. So it is Pullinga Shabda only. That is why I said mostly the Pullinga words are end with ha sound. This is different. Vidyarthin Shabda, it is different. So, okay. Maheshaha Vaidyaha va is the question. Na Maheshaha Vaidyaha na saha vidyarthi. Uttamam. Next, Pranavaha. Anantaha Shikshakaha va.
आम् आनन्दः शिक्षकः
आनन्दः लिपिकारः वा
न आनन्दः लिपिकारः न आनन्दः शिक्षिका वा
शिक्षकः अनन्तः लिपिकारः न सः शिक्षकः उत्तमं प्रणवः नेक्स्ट् सुधीर महोदय देवदत्तः न्यायवादी वा
न देवदत्तः न्यायवादी न सः
उट्टङ्ककः
उट्टङ्ककः
उट्टङ्ककः ऊ उट्टङ्ककः
देवदत्तः उट्टङ्ककः
उत्तमम् उट्टङ्ककः टैपिस्ट् न्यायवादी वकील् न्यायवादी लायर् न्यायं वाद वादनं करोति किल न्यायवादी देवदत्तः न्यायवादी न सः उट्टङ्ककः नागराजः लिपिकारः वा सारि चित्रकारः वा I think Samartha is there.
No, he has gone out. I'll answer.
Nagaraja.
He has stepped out. I'll answer on his behalf.
No I'm issues. Someone can. Yeah, someone can try. I think. Pranav is done.
I can try.
Prasanna Mahode. I can try.
Okay. Nagaraja. चित्रकः वा
चित्रकारः
वा न नागराज न सः चित्रकारः नः सः आरक्षकः
उत्तमं सः चित्रकारः न सः आरक्षकः उत्तमम् आम् न द क्वश्चन् इस् वा सो नार्मलि सः कः सा का तत् किं दीस् आर् आल् दि टैप् आफ़् क्वश्चन् अण्ड् आल्सो अदर् टैप् आफ़् क्वश्चन्स् इस् वेरि सिम्पल् वन् वाट् सः बालकः वा सः वैद्यः वा यु आर् आस्किङ्ग् ए क्वश्चन् वित् वा यु आर् नो मेकिङ्ग् ए सेण्टेन्स् एण्ड् वित् वा इट् बिकम्स् अ क्वश्चन् सिम्पल् एक्साम्पल् सः बालकः इस् अ सेण्टेन्स् सः बालकः ईस् अ बाय् You are asking, you have to ask a question or you have to change this same sentence into a question. You just put va at the end of the sentence. Saha balakaha is a sentence. Va you are adding saha balakaha va. It becomes a question. So va is a question. Yeah? Saha balakaha va. Saha vaidyaha va. Sa nartaki va. सा अध्यापिका वा तत् व्यजनं वा तत् द्वारं वा तत् चित्रं वा लैक् दट् या वा इस् अ क्वश्चन् सो यु केन् ईज़िलि कन्वर्ट् अ सेण्टेन्स् इन् टु अ क्वश्चन् बै पुटिङ्ग् और् आडिङ्ग् अ वा अट् दि एण्ड् रामः सीता सो दीस् आर् आल् द थिङ्ग्स् वी जस्ट् आड् सः सा तत् लैक् सः रामः एषः रामः कः रामः दिस् आर् आल् द होम्वर्क् यु नीड् टु डू इन् दिस् पेज् सो दिस् टेबल् हेस् नो त्री लिङ्ग रामः यु जस्ट् एड् सः रामः एषः रामः कः रामः ग्रन्थः सः ग्रन्थः एषः ग्रन्थः कः ग्रन्थः श्लोकः सः श्लोकः एषः श्लोकः कः श्लोकः दर्पणः लैक् दट् सीता सा सीता एषा सीता का सीता बालिका सा बालिका एषा बालिका का बालिका यु मेक् आल् दि सेण्टेन्सस् बै यूसिङ्ग् आफ़् दिस् वर्ड्स् पुस्तकं तत् पुस्तकम् एतत् पुस्तकं किं पुस्तकं पुष्पं तत् पुष्पम् एतत् पुष्पं किं पुष्पं लैक् दट्
सीता का सीता मीन्स् हुई सीता ओके ओके एण्ड् किं पुस्तकं विच् बुक्
वाट् विच् बुक् आर् वाट् इस् दिस् is this a kim etad ramayana pustakam etad kim pustakam etad ramayana pustakam
okay
yeah what is the answer yeah. Uttam. So you just make it here this as a homework and I hope you are familiar with this nitya upayogini vastuni the things we are using day to day life darpanah manchah I hope this is over right
yeah
Uttamam. So by using all these words these things you can make some sentences asti
naati I hope
asti naati asti naati so we are done with asti or naati Vimal Mohadeya, is it over, Asti Naasti?
Over.
Okay.
Sheshadri.
That's just... Sheshadri. Okay. Asti Naasti. There is a picture. You can identify the thing. Gati Asti. Sanghanakam Asti. Lekani Asti. Pustakam Asti. పాంచాలికా నాస్తి రైట్ అంకణీ నాస్తి జంగమదూరవాణి నాస్తి కిం అస్తి కిం నాస్తి బై సీయింగ్ దిస్ పిక్చర్ క్యాన్ వి ట్రై విత్ కిం అస్తి కిం నాస్తి One by one. Vimal Mohadeya can start first.
Pustakam Asti.
Next, Narasimha Mohadeya. Kim Asti?
Balakah. Balakah Santi.
Okay. You just use a singular word first. Balakah asti. Uttamam.
Balakah asti.
Pranav. Uttamam. Pranavaha.
Deepaha asti. Kim asti.
Uttamam. Deepaha asti. Next. Prasanna Mahodaya.
Nidhanika asti.
Uttamam. Nidhanika asti. ఉత్తమం సుధీర్ మహోదయ
పుష్పం నాస్తి
ఓకే పుష్పం నాస్తి సమర్థ
ఇస్ అ స్టెప్ డౌట్ ప్లీజ్
ఓకే నో వరీస్ శేషాద్రి మహోదయ శేషాద్రి మహోదయ కిం అస్తి కిం నాస్తి
పుస్తకం అస్తి
ఓ ఓకే సో ఉత్పీఠికా అస్తి వా ఉత్పీఠికా టేబుల్
అస్తి ఉత్పీఠికా
అస్తి ఉత్తమం ఉత్తమం ఉత్పీఠికా అస్తి విమల్ మహోదయ అన్య కిం అస్తి
యువతి అస్తి
యువతి అస్తి ఉత్తమం యువతి అస్తి నరసింహ మహోదయ కిం అస్తి
విద్యుత్ దీపః అస్తి
ఉత్తమం విద్యుత్ దీపః అస్తి ఉత్తమం ప్రణవ్ ప్రణవః కిం అస్తి కిం నాస్తి కిం అస్తి కిం నాస్తి దూరదర్శనం నాస్తి రైట్
yes
దూరదర్శనం అన్ని కిం నాస్తి
ఫలకం నాస్తి
ఫలకం నాస్తి ప్రణవ కెన్ యు ట్రై ప్రణవ్ किं नास्ति दूरवाणी नास्ति यु नो अस्ति नास्ति
नास्ति
नास्ति ओके ओके प्रसन्न महोदय
यस यस अङ्कनी अङ्कनी नास्ति लेखनी नास्ति
अङ्कनी नास्ति लेखनी नास्ति so we have so much so many things here we can try it now pranavaha can you try by seeing this picture
pushpam
pushpam asti uttamam pushpam asti sudhir mahodaya
dvichakram asti
dvichakrika asti द्विचक्रिका अस्ति अन्यत् अन्यत् वृक्षः अस्ति
वृक्षः अस्ति
उत्तमं न न न उत्तमं पर्याप्तं शेषाद्रिमहोदय शेषाद्रिमहोदय किम् अस्ति
बालिका अस्ति बालकः
बालिका अस्ति उत्तमं बालिका बालकः अस्ति
अस्ति
उत्तमम् उत्तमम् ओके सुधीर महोदय इस् समर्थ बेक् ओके देन् नरसिंहमहोदय यु केन् ट्रै अन्य किम् अस्ति उत्तमं कुक्कुरः अस्ति कुक्कुरः आर् शुनकः अस्ति उत्तमं विमल् महोदय
वृक्षः अस्ति
वृक्षः अस्ति आल्रेडि समन् सेड् समथिङ्ग् एल्स् यु केन् ट्रै
पक्षिः अस्ति
हा पक्षी अस्ति पक्षी अस्ति उत्तमं
गुलिका अस्ति
वाट्
गुलिका इस् बाल् नो
ओ कन्दुकं कन्दुकं कन्दुकम् अस्ति उत्तमं कन्दुकम् अस्ति प्रसन्नमहोदय यु केन् ट्रै समथिङ्ग् हियर्
पुष्पगुच्छ अस्ति बालिका अस्ति
पुष्पम् अस्ति बालिका अस्ति उत्तमम् आकाशः अस्ति वा
आकाशः अस्ति आम् आकाशः अस्ति
आकाशः अस्ति विमानम् अस्ति वा
न विमानं
नास्ति
विमानं नास्ति रेल्यानम् अस्ति वा
रेल्यानं नास्ति
नदी अस्ति वा
न नदी अस्ति
नदी नास्ति
नदी नास्ति
सो फार् ओके ओके फार् अस्ति यु हेव् नो रेस्ट्रिक्षन्स् यु हेव् टु से वाट् एवर् इन् द अवेलेबल् इन् द पिक्चर् फार् नास्ति यु केन् से एनिथिङ्ग् रेल्यानं नास्ति चन्द्रः नास्ति विमानं नास्ति गजः नास्ति युवती नास्ति महिला नास्ति एनिथिङ्ग् केन् से अस्ति नास्ति अस्ति नास्ति अत्र तत्र सर्वत्र अन्यत्र कुत्र वि नो दट् अत्र पुस्तकम् अस्ति अत्र व्यजनम् अस्ति अत्र सङ्गणकम् अस्ति तत्र वृक्षः अस्ति तत्र वाहनम् अस्ति तत्र गृहम् अस्ति मम माता अन्यत्र अस्ति मम माता अन्यत्र अस्ति वायुः सर्वत्र अस्ति वायुः सर्वत्र अस्ति ईश्वरः सर्वत्र अस्ति ईश्वरः सर्वत्र अस्ति ईश्वरः कुत्र अस्ति ईश्वरः सर्वत्र अस्ति वायुः कुत्र अस्ति वायुः सर्वत्र अस्ति उत्तमं नौ वि आर् मूविङ्ग् टु अनदर् सेक्षन् mama nama kamala rajaha mama nama kamala rajaha aham yuvakaha aham yuvakaha mama nama kamala rajaha aham shikshakaha aham shikshakaha mama nama kamala rajaha aham desha bhaktaha aham desha bhaktaha mama nama kamala rajaha aham rama bhaktaha aham rama bhaktaha mama nama kamala rajaha aham tantrajnyaha aham tantrajnyaha mama nama aham aham tantrajnyaha aham vaidyaha aham chatraha aham yuvakaha aham desha bhaktaha now I am asking a question aham desha bhaktaha vimal mahodaya bhavan kaha
aham tantrajnaha
uttamam aham desha bhaktaha bhavan kaha aham tantrajnaha narasimhan mahodaya aham rama bhaktaha bhavan kaha
aham samskruta vidyarthi
uttamam aham samskruta vidyarthi pranavah aham युवकः भवान् कः
अहं बालकः
उत्तमम् अहं बालकः उत्तमं प्रसन्न महोदय अहं पुरुषः भवान् कः
अहं पुरुषः
उत्तमम् अहं पुरुषः उत्तमं सुधीर महोदय अहं संस्कृतछात्रः भवान् कः
अहं वृद्धः अहं वृद्धः ओके अहम् सेन्सिट् फार् अकौण्टेण्ट्
अकौण्टेण्ट्
ऐ
एम् नाट् शोर् अकौण्टेण्ट् ऐ एम् नाट् शोर् ऐ विल् सी इट् मे बी गणितज्ञः
गणितज्ञः
ओके यु केन् से आल्मोस्ट् यु आर् मेचिङ्ग् इट् ऐ डु नाट् नो अबौट् अकौण्टेण्ट् ऐ विल् सी अण्ड् लेट् यु नो यु से संथिङ्ग् एल्स्
अहं देशभक्तः
देशभक्तः उत्तमं शेषाद्रि महोदय समर्थ इस् देर्
शेषाद्रि इस् देर्
ओके शेषाद्रि महोदय अहम् अहं तन्त्रज्ञः भवान् कः
अहं वृद्धः
ओके अहं संस्कृतज्ञः यु केन् से
ओहो ऐ एम् एक्चुलि 70 इयर्स् ओल्ड् देयरफॉर ऐ टोल्ड् वृद्धः
ओके यु केन् से समथिङ्ग् एल्स्
थैंक यू अयं विद्यार्थी अहं विद्यार्थी
उत्तमम् उत्तमं विमल् महोदय मम नाम कमलराजः अहं वैद्यः अहं युवकः अहं देशभक्तः केन् यू इण्ट्रोड्यूस् युवर् सेल्फ् लैक् दिस् मम नाम विमलः अहं वाट्
मम नाम विमलः अहं अहं युवकः अहं कृष्णभक्तः अहं विद्यार्थी
उत्तमम् उत्तमं नरसिंहमहोदय
मम नाम नरसिंहः अहं संस्कृतविद्यार्थी अहं कार्यकर्ता अहं युवकः
उत्तमं मम नाम कमलराजः अहं युवकः अहं देशभक्तः अहं तन्त्रज्ञः प्रणवः
मम नाम प्रणवः अहं बालकः अहं
संस्कृतछात्रः
संस्कृतछात्रः
अहं देशभक्तः आर्यो देशभक्तः
यस्
ओके उत्तमम् अहं देशभक्तः देन् अहं रामभक्तः लैक् दट् यू केन् से उत्तमं प्रसन्न महोदय
मम नाम प्रसन्नः अहं रामभक्तः अहं संस्कृतछात्रम् अहं संस्कृतछात्रः अहं सङ्गणकयन्त्रकारः
उत्तमम्
अहं देशभक्तः
उत्तमम् उत्तमं सुधीर महोदय
मम नाम सुधीरः अहं देशभक्तः अहं संस्कृतछात्रः अहं
ओके शेषाद्रि महोदय
मम नाम शेषाद्रिः शेषाद्रि मम वृद्धः मम
नृसिंहभर्तः शेषाद्रिः दट् इस् एनफ् देन् अहम्
अहं नृसिंहभक्तः
अहं नरसिंहभक्तः नरसिंहमहोदय अत्र अस्ति भवान् तस्य भक्तः वा
नृसिंहभक्तः अहं वृद्धः अहं संस्कृतविद्यार्थी
उत्तमम् उत्तमं नौ Prasanna Mahodaya can ask a question to Vimal Mahodaya like this. Mama nama Prasannaha Aham Tantrajnaha Bhavan kaha Yeah, Prasanna Mahodaya to Vimal Mahodaya.
Vimal Mahodaya, Mama nama Prasannaha Aham Tantrajnaha Bhavantaha kaha
Bhavan
kaha Bhavan kaha
अहं विमलः अहं तन्त्रज्ञः मम नाम
यु आस्क् क्वश्चिन् टु नरसिंहमहोदय मम नाम विमलः अहं तन्त्रज्ञः आर् अहं संस्कृतज्ञः भवान् कः
अहं विमलः मम सोरि You said ask question, correct? Aham Bimala. Sorry, aham Bimala. Aham Sanskruti, Sanskrut Vidyarthi. Bhavan kaha.
Narasimha Mahodaya. You have to answer, Bimala Mahodaya. Narasimha Mahodaya is there? Okay, so you ask Bimala Mahodaya, you ask question to... सुधीर महोदय मम नाम विमलः अहं संस्कृतविद्यार्थी अहं तन्त्रज्ञः भवान् कः सुधीर महोदय यु आस्क् क्वश्चन् या विमल महोदय नौ
अहं विमलः अहं संस्कृतविद्यार्थी भवान् कः
सुधीर महोदय वदतु
मम नाम सुधीरः अहं शिक्षकः अहं गृहस्थः भवान् कः
नौ द क्वश्चन् इस् टु नरसिंहमहोदय दिस् इस् द क्वश्चन् फार् यू भवान् कः
अहं नरसिंहः अहं कार्यकर्ता भवान् कः
क्वश्चन् टु प्रणव् भवान् कः
नाम प्रणवः अहं बालकः भवान् कः
दिस् इस् अ क्वश्चन् टु शेषाद्रि महोदय
अहं शेषाद्रि शेषाद्रि अहं विद्यार्थी संस्कृतविद्यार्थी भवान् कः
दिस् अ क्वश्चन् फार् मी मम नाम कमलराजः अहं शिक्षकः संस्कृतशिक्षकः धन्यवादः उत्तमं सो दिस् इस् यु नो यु आर् आस्किङ्ग् अ मेल् आस्किङ्ग् अ बाय् आर् आस्किङ्ग् अ मेल् जेण्डर् भवान् कः इफ् इट् इस् अ फीमेल् यु हेव् टु आस्क् भवती का सो वि हेव् आल्रेडि लर्न्ड् एनफ् आस्किङ्ग् क्वश्चन् कः का किं सो भवान् इस् मास्कुलिन् भवती इस् फेमिनिन् so if you are asking a male a masculine gender you are asking you should ask with kaha bhavan kaha if it is a female you know that then you have to ask you have to use the word ka as a question so bhavati ka unfortunately we do not have a female participant here so okay you can ask someone bhavati ka now प्रसन्ना अस्ति प्रसन्ना महोदय युवर् नेम् इस् लक्ष्मीः यु जस्ट् कन्सिडर् युवर् नेम् एस् लक्ष्मीः या नौ नरसिंहमहोदय इस् आस्किङ्ग् ए क्वश्चिन् टु यु नरसिंहमहोदय यु आस्क् लक्ष्मीः मम नाम नरसिंहः अहं
मम नाम नरसिंहः अहं विद्यार्थी भवती का
उत्तमं भवती का प्रसन्ना महोदय युवर् नेम् इस् लक्ष्मी नौ
मम नाम लक्ष्मीः मम संस्कृतविद्यार्थिनी अहं संस्कृतविद्यार्थिनी विद्यार्थिनी अहं गृहिणी
उत्तमं
अहं विष्णुभक्तिनी
विष्णुभक्ता
विष्णुभक्ता
भक्तः भक्ता छात्रः छात्रा बालकः बालिका लैक् ओके
ओके
उत्तमं नौ लक्ष्मी लक्ष्मीः नौ यु आर् आस्किङ्ग् क्वश्चन् टु शेषाद्रि महोदय हू इस् प्लेयिङ्ग् अ रोल् एस् शान्ति नौ
मम नाम लक्ष्मीः सोरि वाट् वास् द नेम् अगेन् अहं विद्यार्थिनी अहं गृहिणी भवती का
उत्तमं
मम नाम
शान्ति
शान्ति मम विद्यार्थी
अहं विद्यार्थिनी
अहं विद्यार्थी भवती का
ओके भवती का नौ प्रणौ is playing as Sita. Bhavati ka?
Mama nama Sita. Aham.
Chatra.
Chatra.
Aham Balika.
Aham Balika.
Question. To Vimal Mahodaya. Vimal Mahodaya is known as now Mala. Oh, Vimala, you can say Vimala. The question to you, Vimala Bhagini.
Aham Vimala. Aham Vimala. Aham
Vimala.
Yuvati.
Yuvati, very good.
Aham Vidyarthini.
Uttamam.
Bhavati ka. I'm asking
this
question.
This is the question. Question to Sudhir Mahodaya, who is playing as now a good name you can choose.
Playing as what?
Playing as the role of Aishwarya.
Sudha.
Sudha. Mama nama.
Okay.
Mama nama Sudha. Aham Grahini. Aham Shikshika. Bhavati ka.
Very good. This is a question for me. I am playing as Sita now or Aishwarya now. मम नाम ऐश्वर्या अहं विद्यार्थिनी अहं संस्कृतशिक्षिका अहं युवती उत्तमम् अहं भवान् भवती अहं भवान् भवती भवान् कः भवती का राइट अहम् अहं भवान् भवती दीस् आर् थिङ्ग्स् वी हेव् लर्न् नौ दिस् इस् फार् युवर् एक्ससैज़् पर्पस् यु केन् टेक् दिस् एस् अ होम् वर्क् अहं भवान् भवती
ओके ओके अहं भवान् भवती ओके
ओके सो दीस् आर् आल् नो यु केन् यूस् इट् वेल् इण्ट्रोड्यूसिङ्ग् युवर् सेल्फ् अहं भवान् भवती ओके So this class was mostly a recalling session or a revision what we have learned the last weeks so that Aishwarya Bhagini can take this forward in the next classes Balakaha Balakasya Shashti Bhakti and all okay I think so I have
any assignments any homework or something that we should do
Yes, I will send.
Yeah, okay.
I will send a homework. Maybe Aishwarya Bhagini will send a homework as usual with the points covered or whatever in this class.
It would be good if the homework can also be put in the WhatsApp group because in our inbox, no? The mails from all the teachers come.
Yes, I understand. Yeah, okay.
So we will continue. Then the WhatsApp yes. group that we have formed.
Sure.
You will be taking the class?
Sorry?
Now onwards, you will be taking the class?
No. I am just, helping her this week because she is out.
Okay.
Normally, she will take the class from the next week.
Okay.
That's good. Very, very nice question today. Thank you.
Okay,
yeah,
so we'll...
coordination so, was good.
Uttamam. So the thing is, whenever we are not, we are not sharing something or we are not answering, we should be in the mute status. That would be a beneficiary for all the participants. Because we are hearing more noise, it would be, very difficult to communicate things.
Okay.
Good. So now we can wind up the session with this Shanti Mantra. Please mute yourself. Okay. I'll chant the shloka. I'll chant the Shanti Mantra. Please sit erect. Close your eyes. Om. असतो मा सद्गमय तमसो मा ज्योतिर्गमय मृत्योर्मा अमृतं गमय ॐ शान्ति शान्ति शान्तिः धन्यवादः पुनर्मिलामः
Thank you. Dhanyavadaha.